स्फुटं स्फटिकसप्रभं स्फुटितहाटकश्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयं तरक्षुवरकृत्तिमत् भुजगभूषणं भूतिमत् कदानुशितिकण्ठते वपुरवेक्षते वीक्षणं त्रिलोचनविलोचने लसति ते ललामायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् स्वभक्तिलतया वशीकृतवती सतीयं सती स्वभक्तवशवो भवानपि वशी प्रसीद प्रभो महेशमहितोऽसि त्वत्पुरुषपूरुषाग्रो भवान् अघोररिपुघोरते अनवम वामदेवाञ्जलिः मनः सपदि जातते त्वमिति पञ्चरूपोऽञ्चितः प्रपञ्चय च पञ्चवृङ्म मनस्तमस्ताडय रसा घनरसा अनला अनिल वियद्विवस्वद्विदुः प्रयुष्टुषु निमिष्टमित्यज भजाभिमूर्त्यष्टकम् प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो वपुंषि गुणपुंषि ते अहमहम् आत्मनो अहं विधे विमुक्तिपरमाध्वनां तव षडध्वरामास्पदं पदं निगमवेदिनो जगति वामदेवादयः कथञ्चिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलान्तराः कथमुमेष तन्मन्महे कठोरितकुठारया ललितशूलया बाहया रणढ्यमरया स्फुरद्धरणीया सखट्वङ्गया चलाभिरचलाभिः अप्यगणिताभिः उन्नृत्यतः चतुर्दश जगन्ति ते जय जयेत्ययुः विस्मयम् पुरुत्रिपुररन्धनं विविधदैत्यविध्वंसनं पराक्रमपरम्परा अपि परारते विस्मयः अमर्षबरहर्षिता क्षुभितवृत्तनेत्रोज्ज्वल ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् सहस्रनयनो गुहः सहस्ररश्मिर्विदुः बृहस्पतिरुदापतिः ससुरसिद्धविद्याधराः भवत्पदपरायणाः श्रियमिमामगुः प्रार्थिनां भवान् सुरतरुदृशं दिश शिवां शिवावल्लभा तव प्रियतमादतिप्रियतं सदैवान्तरं पयस्युपहितं घृतं स्वयमिव श्रियो वल्लभम् विविद्धलघुबुद्धयः स्वपरपक्षलक्षायितं पठन्ति हि लुठन्ति ते षटहृदः शुचा शुण्ठिता विलासनिलेशिता तव शिरस्ततिर्वालिका कपालमपि ते करे त्वम शिवोऽस्यनन्तर्धिगा तथापि भवतः पदं शिव शिवेद्यतो जल्पताम् अकिञ्चनमकिञ्चन व्रजिनमस्त्यभस्मीभवत् त्वमेव किल कामधु सकलकाममापूरयन् अपि त्रिनयनः सदा वहसि चात्रिनेत्रोद्भवम् विषं विषदरान् दधत् पिबसि तेन चानन्दवान् विरुद्धचरितोचिता विरुद्धचरितोचिता जगदधीशते भिक्षुता नमः शिव शिवा शिवा शिव शिवार्धकृता शिवम् నమో హరాహర ఆహర అహరహ అంతరీ మేదృశం నమో భవాభవ అభవ ప్రభవ భూతయే సంపదా నమో మృడ నమో నమో నమ ఉమేష తుభ్యం నమః నమో ఉమేష తుభ్యం నమః నమో ఉమేష తుభ్యం నమః సతాం శ్రవణ పద్ధతి సరతు సన్నతోక్తేత్యసౌ శివస్య కరుణాంకురాత్ ప్రతికృతాః సదా శోధితా ఇతి ప్రతితమానసో వ్యదిత నామ నారాయణః శివస్తుతిమిమాం శివాం లింకుచ సూరి సూను సుధీ లింకుచ సూరి సూను సుధీ కృష్ణార్పణమస్తు.